एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः ध्रुव भट्टराई प्रतिनिधि सभाया गतदिवसे उपवेशेऽपि आगामिन आर्थिक वर्षस्य विनियोजितम् आयव्ययकम् आधृत्य मन्त्रालयगतम् विमर्शनम् अभवत् विमर्शने सांसदः कृषकाणां कृते प्रतिवर्षम् रासायनिक मलाय वित्तम् आवंटितम् सदपि कृषिकर्मण समये मलस्य अभाव दुःखदुस्थिति भासमाण नेपाल एव मलोत्पादनशालाम् सञ्चालयितुम् अनुरुद्धवन्तः सांसदा एलाफल कृषिं प्रोत्साहयितुं स्थानीय स्तरेषु रिक्तां जनशक्तिं शीघ्रं परिपूरयितुं वैचारिक विमर्शनाय रेडियो नेपालाय नेपाल टेलिभिजन संस्थानाय च वित्तम् आवंटयितुं महिलानां आत्मनिर्भरशीलेभ्य उद्योगेभ्य व्ययं निर्धारयितुं मूलौषधानां संकलन प्रशोधन केन्द्रं निर्मातुं च अयाचन्त सांसदाः पूर्वाधारण विनैव यातायात साधनेषु उत्कीडाङ्कानां संस्थापनाय आदिष्टमिति आरोपयन्तः यातायात साधन चालनानुमतिपत्रं ग्रहीतुमपि सर्वसाधारणे कष्टम् अनुभूयमानमस्तीति धारणां व्यक्तवन्तः हेटौडा वस्त्रोद्योगेन उत्पादितं वस्त्रं परिधर्तुम् आयव्ययकेन प्रेरितमिति कथयन्तः सांसदाः पिहितम् उद्योगं तत्कालं सञ्चालयितुं बलम् अदुः उपवेशे आगामिन आर्थिक वर्षस्य आयव्ययकम् आधृत्य कृषि पशुपक्षी विकासोद्योग वाणिज्यापूर्ति संघीय विषय सामान्य प्रशासन संचार सूचना प्रविधि मन्त्रालयेन मन्त्रालयगतं विमर्शनम् अभवत् तत्पूर्वं सांसदः काष्ठमण्डपे बहुकालात् संकलितात् अवकरात् संक्रामक रोगस्य प्रसरणं सम्भविष्यतीति तर्कयन्तः तत्कालम् अवकरस्य व्यवस्थापनाय सर्वकारम् अभ्ययाचन्त उपवेशे विशेष सामी गृहीत्वा सांसदौ कृष्णगोपाल श्रेष्ठ यज्ञबहादुर बोगटी च काष्ठमण्डपे संकलितात् अवकरात् संक्रामक रोग प्रसरणस्य भयात् काष्ठमण्डप महानगरपालिकया सर्वसाधारणान् कृते गृहात् बहिर्निष्कान्तुम् आभ्यन्तरतः संसूचनं प्रेषितमिति आरोपयताम् गतदिवसे उपवेशस्य शून्य समये सांसदा अमरेश कुमार सिंह अमृता थापा मगर आशा बिक कृष्णभक्त पोखरेल गगन कुमार थापा च समाजे महिला सुकिशु ऋषि च वर्धमानाय हिंसाय तत्कालं निरोधनम् अयाचन्त यीभि कृषकै यथासमय मलस्य विद्यार्थिभि पाठ्यपुस्तकानां च अप्राप्तिर्विषये सर्वकारस्य ध्यानम् आकर्षितम् आसीत् राष्ट्रिय सभाया गतदिवसे उपवेशे राष्ट्रिय समावेशी आयोगस्य आदिवासी जनजात्यायोगस्य राष्ट्रिय सूचनायोगस्य महान्याधिवक्तुस्य वार्षिक प्रतिवेदनानि प्रस्तुतानि सन्ति उपवेशे प्रधानमन्त्रिणा शेरबहादुर देउवा विदेश पक्षतः परराष्ट्रमन्त्री डाक्टर नारायण खड्का एतेषाम् आयोगानां महान्याधिवक्तृ कार्यालयस्य च गतार्थिक वर्षस्य वार्षिक प्रतिवेदनानि प्रस्तोत तत्पूर्वम् उपवेशस्य विशेष समये सांसद नन्दा चपाई सर्वकारेण आयव्ययकी कृषि उत्पादनाय बल प्रदानात्मकं लक्ष्यं निर्धारितं सदपि कृषकेभ्यो यथासमय मल बीजानां प्रदानस्य अशक्यत्वात् प्रतिवर्षं खाद्यवस्तूनां आयात वर्धमानस्थिति अतर्कयत् सांसदौ जितेन्द्र नारायण देव खिमलाल भट्टराई च विचारं प्राकटयताम् एवमेव उपवेशस्य शून्य समये सांसदौ जयन्ती देवी राई नरबहादुर विष्टश्च सामयिक विशेष धारणान् उपस्थापयताम् राष्ट्रिय सभा अपर उपवेश अद्य दिवा एकवादने पुनर्वसति प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य भक्तपुरोद्योग वाणिज्य संघस्य समूहस्य च मध्ये भक्तपुरस्य विकासस्य विषये विमृष्टमस्ति भक्तपुरोद्योग वाणिज्य संघस्य अध्यक्षस्य शिवप्रसाद मानन्धरस्य नेतृत्वस्य पदाधिकारीभि सहितेन समूहेन ह्यो बालवटारवर्तिनी प्रधानमन्त्री निवासी प्रधानमन्त्रिणा देउवाभिधेन सह मिलित्वा एकादश सूत्रीय प्रस्तावस्य प्रस्तुति पुरस्सरं भक्तपुरस्य पूर्वाधारणां विकासाय प्रयत्नार्थम् अनुरुद्धम् अस्ति तदवसरे प्रधानमन्त्रिणा देउवाभिधेन संघेन प्रस्तुतस्य एकादश सूत्रीय प्रस्तावस्य सम्बन्धे आयव्ययक आवश्यक प्रयत्न विधास्यते इति ज्ञापितमिति संघस्य सदस्य नवीन प्रजापति अबोधयत् मधेस प्रदेश सर्वकारस्य आगामिन आर्थिक वर्षस्य नीति कार्यक्रममा सर्वसम्मत्या पारित कृता सन्ति प्रदेश सभा ह्यस्तनोपवेशे प्रदेश सभा सदस्य नीति कार्यक्रम आश्रित्य उत्थापितानां प्रश्नान् मुख्यमन्त्रिणा लालबाबू राउत इत्यनेन उत्तरदानानन्तरं सर्वसम्मत्या प्रदेश सर्वकारस्य नीति कार्यक्रममा पारित कृता सन्ति तत्पूर्वं उपवेशे प्रदेश सभा सदस्यै उत्थापितानि विषयवस्तूनि आगामिन आर्थिक वर्षस्य आयव्ययकस्य माध्यमेन सम्बोधयिष्यन्ति इति प्रतिबद्धतां ज्ञापयता मुख्यमन्त्रिणा राउत इत्यनेन नीति कार्यक्रमान् पारितीकर्तुम् अनुरुद्धम् आसीत् लुम्बिनी प्रदेश सभा हस्तनुपवेशे प्रदेश प्रमुखेण अमिका शेरचन्दले तेनेन प्रदेश सर्वकारस्य आगामिन आर्थिक वर्ष स्वीकृति नीति कार्यक्रम प्रस्तुत सन्ति। प्रस्तुतेषु नीति कार्यक्रमेषु कृषि स्वास्थ्य शिक्षाय च विशेष प्राथमिकता प्रदत्ता वर्तते। नीति कार्यक्रमेषु प्रदेश राजधानी क्षेत्रस्य दीर्घकालिक विकासेन सहैव अस्थायी राजधान्य बुटवल क्षेत्रस्य आर्थिक राजधान्य कपिलवस्तु क्षेत्रस्य सांस्कृतिक राजधान्यस्य रूपेण विकास करिष्यति इति विषय समाविष्टोऽस्ति। जसपा नाम्न जनता समाजवादी दल नेपालस्य अध्यक्ष उपेन्द्र यादव कथयति पञ्चदलीय गठबन्धनम् आगामी प्रादेशिक संघीय निर्वाचन यावत् स्थास्यति। प्रेस मञ्च नेपाल संस्था धनुषा शाखाया ह्य जनकपुर धामनी आयोजित पत्रकार सम्मेलने अध्यक्ष यादव पञ्चदलीय गठबन्धने लोकतान्त्रिक समाजवादी दलम आगच्छति चेत् आत्मभि अभ्यर्थयिष्यति इति अवोचत। जसपा दलाध्यक्ष यादव वर्तमान निर्वाचन प्रणाल्या कारणेन निर्वाचने नैका विकृतयो दृष्टा सन्तीति भाषमाण आविशम् एक सप्ततित अपि अधिकेषु राष्ट्रेषु क्रियान्विता सामानुपातिकी निर्वाचन प्रणाली नेपाललाई उपयुक्त स्थिति धारणा उपस्थापयत। अध्यक्ष यादव जन्मसिद्ध नागरिकता युतानाम व्यक्तिनाम सन्तते अविलम्बम नागरिकताम प्रदाय सर्वेषाम नामानि मतदातृ नामावल्यां समावेशनीयानीति विचारं व्यक्तवान्। गृहमन्त्रिणा बालकृष्ण खाँड इत्यनेन सह नेत्र विक्रम चन्दस्य नेतृत्वस्य नेपाल कम्युनिष्ट दलस्य प्रवक्ता खड्गबहादुर विश्वकर्मा ह्यो मेलवार्ताम् अकरोत्। वार्ताम् एतत्पूर्वम् नेपाल कम्युनिष्ट दलेन सह विहिता सहमतय पालिता नवेति समीक्षा विहिता इति गृह मन्त्रालयस्य प्रवक्ता फणीन्द्रमणि पोखरेल ज्ञापितवान्। मेलने सर्वकारस्य पक्षत गृहमन्त्रिणा खाँड इत्यनेन स्थानीय स्तराणाम् निर्वाचनात् पूर्वम् कचित कारावासिनो जनान् मोचयितुम् विहिताय सहमते अनुरूपम् प्रक्रिया अग्रे वर्धितेति विज्ञापितम् आसीत्। तदवसरे दलस्य प्रवक्ता विश्वकर्मा कारावासिना मोचनस्य प्रक्रिया कुत्र प्राप्तेति जिज्ञासायम् उपस्थापितवान् आसीत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की वैद्युताङ्कन युत प्रविधि रूपान्तरणस्य माध्यमेन नेपाली नारीकाणाम् सशक्तिकरणाय प्रतिबद्धताम् व्यनक्ति। अन्तर्राष्ट्रिय दूरसंचार संघस्य आयोजनायम् रूवाण्डा देशस्य किगाली स्थाने सञ्चाल्यमानम् विश्व दूरसंचार विकास सम्मेलनम् ह्य सम्बोधयन् मन्त्री कार्की सम्पर्क सञ्जाले असंयोजितान् योजयितुम् वैद्युताङ्कन युते अर्थतन्त्रे संलग्नानाम् व्यक्तिनाम् क्षमताम् वर्धयितुम् वैद्युताङ्कन युताय सर्वकारय आधारम् प्रवर्धयितुम् च प्रतिबद्धताम् व्यक्तवान् इति मन्त्रिणा सचिवालयो ज्ञापयति। श्रम वृत्ति सामाजिक सुरक्षा मन्त्री कृष्ण कुमार श्रेष्ठ कथयति वृत्त्युपार्जनानुमति प्रणाल्या अन्तर्गतम् सञ्चालिता कोरिया देशीय भाषा परीक्षा प्रभावकारिणी विश्वसनीय च वर्तते। ललितपुरस्य भैंसीपाटी स्थाने सञ्चालितम् कोरिया भाषा परीक्षाम् ह्यो निरीक्षमाण मन्त्री श्रेष्ठ अवोचत् सर्वकारीय पक्षत श्रमिकान् प्रेषयितुम् सञ्चालिताय भाषा परीक्षा प्रणाली वैज्ञानिकी विधीयमाना वर्तते। काष्ठमण्डप महानगरपालिकाया महानगरे वर्तमान आसन्नाष्टपञ्चाशत् सार्वजनिक शौचालय सम्भारानन्तरम् पुनः प्रयच्छन्ति। महानगरपालिकाया प्रथम कार्यपालिको उपवेशन विभिन्नानाम् संस्थानम् सहकारेण शौचालयान् प्रयोगे आनेतुम् निर्णीतम् आसीत्। नबिल कोषागारस्य केन्द्रीय कार्यालयेन सह अन्यासाम् सप्तदशानाम् शाखानाम् शौचालय साधारणजनै प्रयोक्तुम् शक्यन्ते। ह्य काष्ठमण्डप महानगरपालिकाया नबिल कोषागारेण सह आगामिनाम् पञ्चवर्षाणाम् कृते विशेषस्मिन् संविधा सम्पन्नास्ति। शौचालयानाम् प्रयोगम् आलक्ष्य कोषागारेण किमपि शुल्कम् न गृह्यते। शौचालयानाम् सम्भार स्वच्छीकरणम् जलस्य व्यवस्था च कोषागारेणैव विधीयन्ते। पाकिस्तान देशे विमानयानस्य दुर्घटनायां द्वाविंशतिजना मृता सन्ति। पाकिस्तान देशस्य किला सैफुल्ला जनपदे पर्वतीय संकोचन मार्गे तीव्र गतियुतम् विमानयानम् ह्यो दुर्घटितम् सत् याने आरूढः द्वाविंशतिजना मृता इति समाचारेषु ज्ञापितम् वर्तते। मृतकेषु महिला बालबालिकाश्च आसन् इति उक्तम् अस्ति। इरान देशे रेलयान दुर्घटनायां न्यूनतोऽपि एकविंशतिजना मृता सन्ति। ईरान देशस्य मसद याजत नगरवर्ती मार्गात् रेलयानम् बहिर्भूतम् सद् न्यूनतोऽपि एकविंशतिजना मृता इति तेहरान टाइम्स नाम्नि स्थानीय संचार माध्यमे उल्लिखितम् वर्तते। दुर्घटनायाम् 80 जना आहता आहतेषु 12 जनानाम् अवस्था गभीरा स्थिति ज्ञापितम् वर्तते।